ओम अथ श्री विठल कवचम। सूत उवाच शिरो मे विष्ठलः पातु कपोलमुत्कर प्रियाः नेत्रयोर्विष्णुरूपी वैकुंठो घ्राणमेव च मुनिसेव्यो मुखं पातु दन्तपंक्तिं सुरेश्वराः विद्याधीशस्तु मे जिह्वां कंठं विश्वेश वन्दिताः व्यापको हृदयं पातु स्कन्धौ पातु सुखप्रदाः भुजो मेन्द्रिहरिः पातु करौ च सुरनायकः मध्यं पातु सुराधीशो नाभिं पातु सुरालयाः सुरवन्द्यः कटी पातु जानुनी कमलासनाः जङ्घे पातु ऋषिकेशः पादौ पातु त्रिवेक्रमाः निखिलं च शरीरं मे पातां गोविन्दमाधवौ अकारो व्यापको विष्णुरक्षरात्मक एव च पावकः सर्वपापानाम् अकाराय नमो नमः तारकः सर्वभूतानां धर्मशास्त्रेषु गीयते पुनातु विश्वभुवनं तोङ्काराय नमो नमः मूलप्रकृतिरूपाया महामाया च वैष्णवी तस्या बीजेन संयुक्ता यकाराय नमो नमः वैकुण्ठाधिपति साक्षात् वैकुण्ठ पददायकः वेजयन्ती समायुक्तो विकाराय नमो नमः स्नातः सर्वेषु तीर्थेषु पूतो यज्ञादि कर्मसु पावनो द्विजपंक्तीनां ठकाराय नमो नमः वाहनं गरुडो यस्य भुजङ्गः शयनं तथा वामभागे च लक्ष्मीश्च लकाराय नमो नमः नारदादि समायुक्तं वैष्णवं परमं पदं लभते मानवो नित्यं वैष्णवं धर्ममाश्रिताः व्याधयो विलयं यान्ति पूर्वकर्मा समुद्भवाः भूतानि च पलायन्ति मन्त्रोपासकदर्शनात् इदं षडक्षरस्तोत्रं यो जपेत् श्रद्धयान्विताः विष्णोः सायुज्यमाप्नोति सत्यं सत्यं न संशयाः इति श्रीपद्मपुराणे विठ्ठलकवचं सम्पूर्णम्।